किम् इति एकवारं वक्तुं शक्नोति वा? किं पत्रम् इति
भगिनि? मम ई पत्रे अस्ति सर्वम्, ईमेल् मध्ये अस्ति, कृपया पश्यतु तत्र।
अस्तु,
अहमपि प्रेषितवती, जयन्ती भगिनी अपि प्रेषितवती, द्विवारं प्रेषितमासीत् पत्रं, कृपया तत्र पश्यतु। अस्तु, तर्हि सर्वेषां स्वागतम्। अद्यतनवर्गे करपत्राणां पठनम् इति भवति। एतावत् पर्यन्तं तु अस्माभिः सप्तपदार्थानां परिचयः प्राप्तः, तेषां निरूपणं जातमस्ति विद्याधरी ग्रन्थे। तर्हि इमानि करपत्राणि पठेम अद्य। इत्युक्ते यदा अस्माकं पुरातनन्यायवर्गः आरब्धः आसीत् तदा वर्गे त्रिभ्यः वर्षेभ्यः पूर्वं वर्गे ये ये प्रश्नाः आसन् तान् सर्वान् एकत्रीकृत्य स्वरूप् महोदयेन एकस्मिन् करपत्रे स्थापितमासीत्। तत्र तेषां समाधानमपि एषु करपत्रेषु विद्यते। वयम् अधिकाधिकान् विषयान् चर्चितवन्तः एव, पुनः केवलं स्पष्टीकरणार्थम् अद्य करपत्रं पठेम इति। तर्हि विजी भगिनी अस्ति वा?
आं भगिनि, सामान्यं विशेषः च।
सत्यं, सामान्यं विशेषः च इति करपत्र।
सामान्यं विशेषः च न्यायशास्त्रे कश्चन सिद्धान्तः, सर्वे पदार्थाः भिन्नाः, एतत् पुस्तकं तत् पुस्तकं भिन्नं पुस्तकं, द्वयोः पुस्तकयोः विषयः भिन्नः, रूपं भिन्नम् इत्यादिकम्। एवमेव विश्वे सर्वाणि वस्तूनि भिन्नानि, किन्तु यद्यपि एतत् पुस्तकं भिन्नं तत् पुस्तकं भिन्नं, तथापि द्वे अपि पुस्तके। तर्हि इमे द्वे पुस्तके न्यायशास्त्रसिद्धान्तः, सर्वे पदार्थाः भिन्नाः, न्यायशास्त्रे सर्वे पदार्थाः भिन्नाः, पदार्थाः भिन्नानि एव। ये पुस्तकं पश्यतु चेत् सर्वाणि पुस्तकं भिन्नानि भवन्ति, यद्यपि पुस्तकस्य आकारः एकमेव, परन्तु पुस्तकम् एतत् पुस्तकम् अन्यपुस्तकम् अपरं पुस्तकम् इति चेत् सर्वे पुस्तकं भिन्नानि भवन्ति। एतत् पुस्तकं सर्वाणि पुस्तकानि भिन्नानि भवन्ति, एतत् पुस्तकात् अन्यपुस्तकं भिन्नम्। एवमेव विश्वे सर्वाणि वस्तूनि भिन्नानि भवन्ति, किन्तु यद्यपि एतत् पुस्तकं भिन्नं तत् पुस्तकं भिन्नं, तथापि द्वे अपि पुस्तके पुस्तकानि भिन्नानि, परन्तु एतत् पुस्तकम् इति ज्ञातम्।
समीचीनं भगिनि,
पुस्तकम् इति ज्ञाता इत्युक्ते पुस्तकस्य भिन्नम् अस्ति, परन्तु पुस्तकस्य सामान्यमपि अस्ति, अतः एतत् पुस्तकम् अपरं पुस्तकम् इति पुस्तकं नाम्ना
उच्यते,
वदामि उच्यते, उक्तं। तर्हि इमे द्वे पुस्तके एकया दृष्ट्या भिन्ने, अपरया च दृष्ट्या समाने, नाम तयोः मध्ये साम्यम् अस्ति। पूर्वं वदामि किल, पुस्तकत्वम् अस्ति, परन्तु एतत् पुस्तकात् अन्यपुस्तकं भिन्नं, तत्समये यतोपि पुस्तके सामान्यम् अस्ति इति जाति।
अस्तु भगिनी,
इति
एकवारं पठतु।
अतः अतः द्वयोः पुस्तकयोः मध्ये भेदः अपि अस्ति. येन कारणेन द्वये पुस्तके पृथक् स्तः अपि च द्वयोः मध्ये साम्यम् अपि अस्ति. येन कारणेन द्वये अपि पुस्तके पुस्तके इति वदामः. पुस्तकं मध्ये भिन्नम् अस्ति, भेदं सामान्यमपि अस्ति इति कारणेन पुस्तकम् अनेकं पुस्तकं दृष्ट्वा पुस्तकम् इति उक्तम्. साम्यम् अपि अस्ति, भिन्नमपि अस्ति.
समीचीनम्. अग्रे
अग्रे अस्मिन् पाठे प्रथमतया द्वयोः पुस्तकयोः अथवा अन्यपदार्थयोः यत् साम्यम् अस्ति तत् पश्यामः. तदा द्वयोः पदार्थयोः मध्ये यः भेदः अस्ति सः भेदः कः अपि च कथं सिद्धः इति पश्यामः. अपि च अस्मिन् पुस्तकयोः मध्ये भेदः अस्ति, सामान्यमपि अस्ति. तद्वत् पदार्थे पदार्थानां मध्ये भेदः भिन्नः इति कथं सिद्धम् इति अपि च पठामः.
साम्यं कुत्र, भेदः कुत्र इति किञ्चित्
पश्यामः. साम्यं कुत्र, भेदः कुत्र इति पश्यामः. अस्तु भगिनि.
अस्तु नूतनम् 7326425 कस्य सङ्ख्या?
नमस्ते भगिनी, अजितः अस्मि, परन्तु अहं बहिः अस्मि, केवलं शृणोमि, परन्तु समय किञ्चित् समयानन्तरम् अहम् आन्लैन्
आगमिष्यामि. अस्तु तर्हि अग्रे सरेम इतः रघुपतिमहोदय अग्रे पठति वा सामान्यम् इति? रघुपतिमहोदय अन्म्यूट् कृत्वा वदतु यदि वदति चेत्.
भगिनि
सामान्यम् इति विषयः.
सामान्यं सामान्यं समानानां धर्मः सामान्यं. सामान्यम् इत्युक्ते जातिः. एतत् पुस्तकं, तदपि पुस्तकं, तदपि पुस्तकम् इयम् एकाकारः प्रतीतिः अस्ति. सामान्यं जातिः च.
तावद् वदतु महोदय प्रथमतया.
यदि वयं पदार्थेषु वयं जानीमः पदार्थेषु सामान्यमपि अस्ति, भेदः अपि अस्ति. पूर्वस्मिन् वाक्ये वयं जानीमः. अत्र सामान्यं किम् इति दत्तं. सामान्यम् इति सामान्यम् इत्युक्ते समानानां धर्म, एकः धर्मः, एका जाति इति वक्तुं शक्नुमः. समानानां धर्म सामान्यम् इति कथं वयं जानीमः. अनेकानि पुस्तकानि, अनेकानि वस्तूनि सन्ति तत्र. सम्पुस्तक पदार्थाः पुस्तकानि सन्ति. पुस्तकानि के पुस्तकानि इति तत्र भेदः अपि अस्ति. सामान्यम्
एकनिमिषः. अस्मिन् वाक्ये वार्ता का इति चेत् समानानां धर्मः सामान्यं, तावदवगच्छति? समानाः के अत्र? पुस्तकानि.
पुस्तकानि समान, पुस्तकत्वं तत्र अस्ति. अतः
एकनिमिषः. समानाः के इति मम प्रश्नः. अत्र समानाः अथवा समानानि सर्वाणि पुस्तकानि प्रथमतया. पुस्तकं समानम् इति कथं जानीमः? एतद् पुस्तकं, तदपि पुस्तकं, तदपि पुस्तकम् इति एकाकारप्रतीतिः. एकाकारप्रतीतिः इत्युक्ते, प्रतीतिः इत्युक्ते ज्ञानम्. अस्तु, एकाकारः इत्युक्ते पुस्तकं पुस्तकं पुस्तकम् इति वारं वारं वदामः खलु. तदेव अस्तु. हा, समानानां धर्मः सामान्यं. कथं समानानि इति जानीमः, एकाकारप्रतीत्या जानीमः सामान्यम् अथवा जाति. अस्तु, अग्रे गच्छतु. अधुना
धर्मः कः? धर्मः नाम कस्यचित् पदार्थस्य स्वभावः. यथा पुस्तके पुस्तकत्वं, रूपे रूपत्वं, गमने गमनत्वं. पुनः काचित् गौः धेनुः कपिलरूपवती, अतः कवि कपिलरूपत्वम् अस्ति. धेनौ कपिलरूपत्वम् अस्ति. कपिलरूपत्वम् इति कश्चन धर्मः. अग्रे
यद् पठितं तदवगतं वा?
अवगतं, किञ्चित् अवगतं, परन्तु अहं वाक्ये एक्स्प्लेन् कर्तुं अशक्तः. मया सम्भाषणसामर्थ्य किञ्चित् न्यूना एव.
अस्तु भगिनि. अस्तु महोदय, तर्हि हा, सभ्यमहोदय साहाय्यं करोति वा अत्र किञ्चित्?
आं भगिनि, तर्हि अत्र अस्ति धर्मः कः. धर्मः कः इति प्रश्नः अस्ति, एवं तस्य उत्तरम् अत्र दीयते. धर्मः नाम कश्चित् पदार्थस्य स्वभावः. तर्हि धर्मः नाम केनचित् पदार्थः स्वीकुर्मः चेत् तस्य स्वभावः इति धर्मः वक्तुं शक्यते. तर्हि अत्र उदाहरणानि दीयते. प्रथमम् उदाहरणमस्ति, पुस्तकं स्वीकुर्मः चेत् पुस्तके पुस्तकत्वम् अस्ति. एवं कोऽपि रूपं स्वीकुर्मः चेत् रूपे रूपत्वम् अस्ति. गमनम् इति स्वीकुर्मः चेत् तत्र गमनत्वम् इति अस्ति. गमनक्रिया स्वीकुर्मः चेत् तत्र गमनत्वम् इति अस्ति. तर्हि पदार्थ इदानीं त्रयं दृष्टम् अस्माकं, पुस्तके पुस्तकत्वं, रूपे रूपत्वं, गमने गमनत्वम् इति अस्ति. तस्य पदार्थस्य एकः स्वभावः, प्रत्येकपदार्थस्य एकं स्वभावः इति अस्ति. पुनः काचित् गौः इत्युक्ते धेनुः, एवं तस्य रूपः इति अस्ति कपिलरूपं. कोऽपि रूपम् अस्ति कपिलरूप इति नाम. तर्हि तत्र धेनौ किमस्ति? कपिलरूपत्वम् इति अस्ति. तर्हि रूपे रूपत्वम् अस्ति, कपिलरूपत्वम् अस्ति धेनौ. तर्हि कपिल रूप, क्षम्यतां, कपिलरूपवती इति दत्तमस्ति. क्षम्यतां, कपिल धेनुः कीदृशः इत्युक्ते कपिलरूपवती. तर्हि धेनौ कपिलरूपवत्वम् इति अस्ति, कपिलरूपवत्वम् अस्ति. तर्हि कपिलरूपवत्वम् इति कश्चन धर्मः. धर्मः इत्युक्ते पदार्थस्य स्वभावः. तर्हि अत्र कपिलरूपवती धेनुः, तर्हि तत्र कपिलरूपवत्वम् इति अस्ति. तर्हि प्रत्येकपदार्थस्य स्वभावः इति धर्मः अत्र दत्तमस्ति.
हा हा, समीचीनं महोदय. अपि च यथा महोदयेन उक्तं, कपिलरूपवती इति उक्तं, तत्र रूपवती इत्यस्मात् त्व इति प्रत्ययं योजयतु, तदा कपिलरूपवत्वम् इति आगच्छति. सः एव धेनोः धर्मः. धर्मः इत्युक्ते यत्किञ्चित् कुत्रचित् वर्तते सः धर्मः. अस्तु, धर्मविषये किञ्चित् वदामि. तत्र धर्मः इति धृ धातुतः, धरति इत्यस्मिन् अर्थे धृ धातु अस्ति खलु, ततः आगतः. धरति इत्युक्ते किं? यत्किञ्चित् कुत्रचित् अस्ति चेत् तस्य धारणं भवति, तदेव धर्मः. तर्हि धेनौ कपिलरूपवत्वम् अस्ति. तर्हि धेनौ कपिलरूपवत्वं धर्मः, अथवा गोत्वम् अस्ति, गोत्वं धर्मः, पुस्तकत्वं पुस्तके अस्ति, अतः पुस्तकत्वं धर्मः इति वदामः. यत्किञ्चित् कुत्रचित् विद्यते सः धर्मः अथवा स्वभावः इति वक्तुं शक्नुमः इति. अवगतं वा रघुपतिमहोदय?
अवगतं भगिनि.
अस्तु
भगिनी, पुनः एकवारं कपिलरूपवत्वम् इत्युक्ते किम् इति वदति वा?
कपिलरूपवती तु जानाति खलु भगिनि?
हा, यस्मिन् कपिलरूपम् अस्ति.
कपिलरूपम् अस्याम् अस्ति इति कपिलरूपवती धेनुः. अधुना तस्मात् पदात् भाववाचकपदं निष्पतुं किं कर्तुं शक्यते? त अथवा तल् प्रत्ययः अथवा त्वं प्रत्ययं योजयामः खलु. सुन्दरः सुन्दरत्वम् अथवा पुस्तकं पुस्तकत्वं यथा तद्वत् कपिलरूपवति प्लस् त्वम् इति योजयतु. भावः भावः निष्पद्यते तेन. कपिलरूपवती इत्यस्य भावः कपिलरूपवत्त्वम् इति तावदेव.
कपिलरूपवत्त्वम् इत्युक्ते कपिलरूपम् इति वा?
कपिलरूपवत्त्वम् इत्युक्ते कपिलरूपवती या अस्ति तस्य भावः. अस्तु, भवती वक्तुमिच्छति कपिलरूपं धेनौ अस्ति खलु इति भवती वक्तुमिच्छति. परन्तु धेनौ कपिलरूपम् अस्ति इति सत्यमेव, अन्ततो गत्वा सः एव अर्थः. परन्तु कः धर्मः धेनौ विद्यते कपिलरूपेण इत्युक्ते कपिलरूपवत्त्वम्. यतोहि धेनुः कपिलरूपस्य आश्रयः अस्ति. कपिलरूपवती इत्युक्ते आश्रयः खलु. तर्हि तस्मात् उपरि गमनार्थं भावप्रत्यययोजनं भवति कपिलरूपवत्त्वम्.
अस्तु अस्तु भगिनि.
अस्तु,
किञ्चित् क्लेशः अस्ति, प्रायः अग्रे गत्वा अवगच्छामि. यतोहि पुस्तके पुस्तकत्वम् अस्ति इति अवगच्छामि. धेनुत्वम् अस्ति इति अवगच्छामि. परन्तु कपिलरूपवत्त्वम् अस्ति इति कपिलरूप
एवं चिन्तयतु. कपिलरूपत्वं कुत्र अस्ति?
कपिलरूपत्वं कपिलरूपे अस्ति
इति सत्यमेव खलु. तर्हि धेनौ कपिलरूपम् अस्ति इति सत्यं, किन्तु कपिलरूपेण निर्दिष्टः कश्चन धर्मः अस्ति खलु. सः धर्मः कः इति चेत् कपिलरूपवत्त्वम् इति वदामः. यतोहि धेनुः कपिलरूपस्य आश्रयत्वेन अत्र अस्ति. वती इत्यनेन आश्रयः किञ्चित् जयन्ती भगिनी किं सा किमपि वदति, गुणे अपि सामान्यं विद्यते हा इति सत्यमेव. कपिलरूपत्वं कपिलरूपे अस्ति, परन्तु धेनौ कश्चन धर्मः अस्ति. सः धर्मः कः इति चेत् कपिलरूपवत्त्वम् इति वदामः.
अस्तु, तर्हि कपिलरूपवत्त्वम् इति धर्मः न तु जातिः.
कपिलरूपवत्त्वम् इति अस्तु, अस्मिन् धेनौ धर्मः इति चिन्तयितुं शक्नुमः, किन्तु कपिलरूपवत्यः बहवः धेनवः सन्ति चेत्
अतः जातिः अपि भवितुम् अर्हति.
हा, समानानां धर्मः सामान्यम् इति कृत्वा जातिः अपि भवितुम् अर्हति.
अस्तु भगिनि, धन्यवादः.
अस्तु, अग्रे सव्यमहोदय अग्रे पठति वा?
आं भगिनि, सर्वाः जातयः धर्माः एव, किन्तु सर्वे धर्माः जातयः न भवन्ति. दृष्टान्ते बहूनि पुस्तकानि सन्ति. एषु सर्वेषु पुस्तकेषु कश्चन धर्मः अस्ति, पुस्तकत्वम्. अयं धर्मः पुस्तकत्वं जातिः अपि अस्ति, यतः सर्वेषु पुस्तकेषु समानं पुस्तकत्वं वर्तते. किन्तु अग्रे गत्वा द्रक्ष्यामः यत् आकाशे आकाशत्वम् इति धर्मः अस्ति, स च आकाशत्वधर्मः, जातिः नास्ति. तर्हि अत्र दीयते सर्वाः जातयः, यत्र बहुषु यत् बहुषु दृश्यते जातयः, जाति इति तत् अस्ति, तत् सर्वे जातयः धर्माः एव. परन्तु विपरीत रीत्या वक्तुं न शक्नुमः, किन्तु सर्वे धर्माः जातयः न भवन्ति. अत्र उदाहरणानि अपि दत्तमस्ति. उदाहरणं प्रथमम् उदाहरणं स्वीकुर्मः यत्र बहुषु दृश्यते, तर्हि पुस्तकस्य उदाहरणं दत्तमस्ति. तर्हि बहूनि पुस्तकानि सन्ति, एवं सर्वेषु पुस्तकेषु किम् अस्ति प्रश्नः अस्ति चेत् तत्र कश्चन धर्मः अस्ति, एवं तत् धर्मः पुस्तकत्वम् इति वदामः. सर्वेषु पुस्तकेषु पुस्तकत्वम् अस्ति. तर्हि अयं धर्मः यत् पुस्तकं, तत् जातिः अपि अस्ति. बहुषु पुस्तकेषु तत् अपि धर्मः पुस्तकत्वं, तत् धर्मः अपि अस्ति, जातिः अपि अस्ति. तर्हि यतः सर्वेषु पुस्तकेषु समानं पुस्तकत्वं वर्तते. तर्हि समानं तत् एव पुस्तकत्वं सर्वेषु पुस्तकेषु वर्तते. तर्हि तत् धर्मः अपि अस्ति, जातिः अपि अस्ति. किन्तु अत्र अत्र किं किं वदामः चेत् अग्रे गत्वा पश्यामः. वयम् अग्रे गत्वा द्रक्ष्यामः यत् इति आकाशम् अन्यत् स्वीकुर्मः चेत् आकाशे किम् अस्ति? आकाशत्वम् इति अस्ति. तत्तु धर्मः अस्ति. एवं तत् आकाशत्वं धर्मः इति वदामः. परन्तु जातिः इति नास्ति. किमर्थम् इत्युक्ते आकाशः एकः एव इति कृत्वा तत् जातिः नास्ति. तर्हि अत्र प्रधानं यत् अस्ति, सर्वे जातयः धर्माः एव, परन्तु सर्वे धर्माः जातयः इति न सन्ति इति अत्र दत्तमस्ति.
समीचीनं महोदय. तर्हि सर्वेषां मनसि स्पष्टता अस्ति वा अस्मिन् विषये? प्रश्नाः सन्ति चेत् कृपया पृच्छन्तु मध्ये मध्ये. अस्तु, सर्वाः जातयः धर्माः एव, सर्वे धर्माः न जातयः इति विचारः. अस्तु, सम्यक्. अस्तु, सभ्य महोदय, अन्तिमवाक्यं तद् पठित्वा समापयतु. आहत्य
अत्र मनसि निष्कर्षः भवेत् यत् बहुषु पदार्थेषु समानः धर्मः जातिः इति न्यायशास्त्रे उच्यते. बहुषु पदार्थेषु समानः धर्मः जातिः किमर्थं स्वीकुर्मः इति चेत्, तेषु पदार्थेषु विद्यमानं समानत्वम् इति स्वीकुर्मः. तर्हि मनसि एक चिन्ताधारा स्यात् इति अत्र दीयते. यत् यत् बहुषु पदार्थेषु समानः धर्मः, यथा पुस्तके पुस्तकत्वं, तत् जातिः इति न्यायशास्त्रे उच्यते. तर्हि बहुषु पदार्थेषु समानः धर्मः जातिः. जातिः किम् इत्युक्ते बहुषु पदार्थेषु समानः धर्मः, यथा पुस्तके पुस्तकत्वं, कपिलरूपवत् अस्ति चेत् कपिलरूपवत्त्वं, रूपे रूपत्वम्, इमानि उदाहरणानि. तर्हि किमर्थम् एतत् स्वीकुर्मः चेत्, तेषु पदार्थेषु विद्यमानं तत्र समानत्वम् अस्ति. समानत्वम् इति स्वीकुर्मः चेत् तत्र जातिः इति वक्तुं शक्यते. तत्र समानानां धर्मः सामान्यं. तत्र बहुषु पदार्थेषु यः समानः धर्मः अस्ति तत् जातिः इति वदेम.
समीचीनं महोदय. अस्तु, तर्हि सामान्यम् इत्युक्ते समानानां धर्मः इति आगतं. परन्तु आरम्भे यद् विजी भगिनी पठितवती, तत्र पुस्तकयोः मध्ये भेदः अपि आसीत्, साम्यमपि आसीत्. साम्यं किम् इति चेत् पुस्तकत्वम्. तेषु पुस्तकेषु विद्यमानः धर्मः समानानां धर्मः पुस्तकत्वम् इति सामान्यं यदस्ति अथवा जातिः या अस्ति सा सामान्यमस्ति तत्र. परन्तु भेदः अपि अस्ति, यतोहि न्यायशास्त्रे सर्वाणि वस्तूनि भिन्नानि, परस्परभिन्नानि एव. अतः भेदः कुत्र वर्तते, केन आधारेण भेदं ज्ञापयितुं शक्नुमः इति किञ्चित् अग्रे पठेम. अग्रे रवि महोदय पठति वा भेदः इति?
भेदः द्वौ घटौ स्तः, एषः घटः तस्मात् घटात् भिन्नः. कथम् इति पृष्ठे सति एतस्य घटस्य कपालः तस्य च घटस्य कपालात् भिन्नः. तस्मात् कारणात् एषः घटः अपि तस्मात् घटात् भिन्नः. अयम् अव्ययः अन्यस्मात् अव्ययात् भिन्नः. अव्यवभेदेन अव्ययिनो घटौ भिन्नौ. अव्ययी नाम यस्मिन् अव्ययः अव्यवः अस्ति सः.
अस्तु महोदय.
अत्र द्वौ घटौ स्तः, एकः घटः अन्य अन्य घटात् भिन्नः अस्ति यथा तस्य अवयवः घटस्य अवयवस्य अवयवात् भिन्नः अस्ति. प्रथमघटस्य कपालः अन्य घटस्य कपालात् भिन्नः. अतः अवयवः भिन्नः तस्मात् घट अव्ययी अपि भिन्नः.
अत्र अव्ययः इति नास्ति, अव्ययपदम् इति वयं शृणुमः. अस्तु, अवयवः अवयवः इत्युक्ते भागः. अवयवः शरीरावयवः इति वदामः खलु, हस्तौ पादे एतत् सर्वं शरीरावयवाः. तद्वत् घटस्य अवयवः कः? कपालः इति वक्तव्यम्. अवयवः कपालः. अवयवी कः? घटः. अवयवी इति पदं गुणी इति पदवत् अस्तु. यस्मिन् गुणः सः गुणी.
यस्मिन् अवयवः अस्ति सः अवयवी.
हा, अत्र किञ्चित् भिन्नरीत्या चिन्तनीयं. यस्य अवयवः सः अवयवी. गुणः यस्य सः गुणी इति अपि अर्थः भवति. अतः यस्य अवयवः सः अवयवी इति वक्तव्यं, यतोहि यस्मिन् अवयवः इति न वक्तुं शक्नुमः एव. न्यायशास्त्रे अवयवी नाम घटः अवयवे कपाले वर्तते. घटः कपाले अस्ति, कपालः घटे नास्ति इति मनसि भवेत्. अवयवे अवयवी वर्तते, अतः यस्मिन् अवयवः इति न वक्तुं शक्नुमः, यतोहि अवयवी आधारः न भवति एव. उद्दं वा महोदय?
किन्तु यत्र द्वौ अवयवः अस्ति तत्र सन्ति तत्र सः.
तत्रापि द्वयोः कपालयोः घटः वर्तते इति वक्तुं शक्नुमः. कपालद्वये घटः वर्तते. कपालद्वयम् अवयवः, अवयवद्वयमस्ति घटस्य. अवयवद्वये घटः अवयवी वर्तते. अस्तु, तर्हि अत्र इनि प्रत्ययः अवश्यमस्ति, परन्तु अस्य अवयवः इति कृत्वा अवयवी इति वक्तव्यं भवति, न तु अस्मिन् अवयवः. बुद्धम्?
किन्तु द्वौ कपालौ अपि भिन्नौ अस्ति स्तः.
हा, सत्यं, द्वौ कपालौ भिन्नौ स्तः. तेन किम् आगतम्?
तथापि घटः कपाले एव अस्ति.
सत्यं, घटः कपालद्वये अस्ति इति न्यायशास्त्रे. अवयवे अवयवी वर्तते. अस्तु, अन्ततो गत्वा अवयविनोः भेदः कथं जानीमः महोदय? द्वौ घटौ अथवा द्वौ अवयविनौ भिन्नौ इति कथं जानीमः? हा, बहु समीचीनं. तर्हि प्रत्येकं घटः अपरस्मात् भिन्नः कथम् इति चेत् अवयवभेदेन. एकस्य घटस्य कपालौ भिन्नौ, अपरस्य घटस्य कपालौ भिन्नौ खलु इति कृत्वा अवयवभेदः जातः. तर्हि अवयवभेदेन अवयविनौ घटौ भिन्नौ इति वक्तुं शक्यते. अवगतं वा? अस्तु, अग्रिमपङ्क्तिं पठतु. अधुना
परमाणुषु अवयवाः न सन्ति इति बुद्धम् अस्माभिः. तर्हि अवयवरहितेषु परमाणुषु भेदः कथं साध्यते? विशेषः इति पदार्थस्य स्वीकारे प्रमुखं कारणम् इदं परमाणूनां परस्परभेदसाधनम्. परमाणुषु अव्यवाः न सन्ति, किन्तु तत्र भेदः स्थापयितुं स्वीक्रियते।
तर्हि विशेषपदार्थस्य स्वीकारे इदमेव कारणमस्ति, प्रमुखं कारणं किम् अस्ति कारणं तत्र?
एक प्रथमपरमाणु अन्यपरमाणुतः भिन्नः।
तर्हि परमाणूनां परस्परभेदसाधनम् इत्येव विशेषस्य स्वीकारे प्रमुखकारणं। किमर्थं चेत् परमाणूनाम् अवयवाः सन्ति वा? न सन्ति खलु? हा, यत्र अवयवाः सन्ति तत्र अवयवभेदेन अवयविनोः भेदः ज्ञायते, परमाणुस्तरे तथा नास्ति, अतः परमाणुस्तरे विशेषः इति एकः पदार्थः स्वीकृतः। बुद्धम्? अस्तु, अग्रे सरेम। तर्हि राधिका भगिनी पठति वा?
आम् भगिनि। द्वयणुकपर्यन्तम् अवयवभेदात् अवयविभेदः सिद्धः। द्वयोः परमाणवोः संयोगेन एकं द्वयणुकं जायते। द्वियोगः अणुकं यणसन्धिं कृत्वा
भगिनि एकनिमिषः, चाट् मध्ये प्रश्नः आगतः। श्रीवल्ली भगिनी भवती वक्तुमिच्छति वा? अस्तु, प्रश्नः न शृणुमः भगिनि। प्रश्नः अस्ति चेत् तत्र टैप् करोतु। अस्तु, अग्रे गच्छतु राधिका भगिनी।
द्वौ अणुः यस्मिन् तत् द्वयणुकं बहुव्रीहि योगः कप्रत्ययः। त्रयः अणवयः यस्मिन् तत् त्रयणुकम्, एवमेव चतुरणुकं पञ्चणुकं षडणुकं सप्तानुकं। तर्हि द्वयणुकपर्यन्तं सर्वेषामपि पदार्थानां परस्परभेदसाधनं स्व अवयवभेदेन वक्तुं शक्यम्। द्वयणुकपर्यन्तम् अवयवभेदात् अवयविभेदः सिद्धः। इदानीं किञ्चित् द्वयणुक इत्युक्ते अहं न स्मरामि भगिनि।
अग्रे पठतु भगिनि। द्वयोः
परमाणवोः संयोगेन एकं द्वयणुकं जायते। परमाणोः द्वयोः परमाणोः संयोगेन एकं द्वयणुकं जायते। अस्तु, इदानीं द्वयणुकं किम् इति जानीमः। द्वयणुकपर्यन्तम् अवयवभेदात् अवयविभेदः सिद्धम्। यदा
द्वयणुकपर्यन्तम् इति न वक्तव्यं, प्रायः तत्र टङ्कनदोषः स्यात्, द्वयणुकात् आरभ्य।
अस्तु अस्तु,
द्वयणुकात् आरभ्य। अस्तु, द्वयणुकस्य अवयवः कः इति कोऽपि पृच्छति चेत् उत्तरं किं भवति?
परमाणुद्वयम्।
परमाणुद्वयं द्वयणुकस्य अवयवः खलु? तर्हि तस्मिन् स्तरे अवयवभेदेन अवयविभेदः सिद्धः खलु? अस्तु,
द्वियोगः अणुकं यणसन्धिं कृत्वा द्वयणुकम्। अस्तु, अत्र दीयते किमर्थं द्वयणुकम् इति वदामः, यणसन्धिं कृत्वा द्वयणुकम् इति वदामः। द्वौ अणु यस्मिन् तत् द्वयणुकम्, अणु परमाणुद्वयम् अस्ति चेत् द्वयणुकं बहुव्रीहि क प्रत्ययः कृत्वा द्वयणुकम् इति वदामः. त्रयः अणवयः यस्मिन् तत् त्रयणुकम्, एवम् एव चतुरणुकं पञ्चाणुकं षडणुकं सप्तानुकम् इति. इदानीं वयं दृष्टवन्तः द्वयणुकं कथम् आगतम् इति. तावदेव त्रयणुकं चतुरणुकं पञ्चाणुकं षडणुकं सप्तानुकं तादृशं वयं वक्तुं शक्नुमः. तर्हि द्वयणुकपर्यन्तं सर्वेषामपि पदार्थानां परस्परभेदसाधनं स्व अवयवभेदेन वक्तुं शक्यम्. किमर्थम् इत्युक्ते वयं जानीमः यदि एकः परमाणु वयं स्वीकुर्मः चेत् तत्र अवयवः नास्ति. एतं वयं न वक्तुं शक्नुमः, अवयवभेदात् किमपि न वक्तुं शक्नुमः. परन्तु द्वयणुक आरभ्य वयं वक्तुं शक्नुमः. किमर्थम् इत्युक्ते अवयवः अस्ति.
द्वयणुकात् आरभ्य पर्यन्तम् इति दोषाय द्वयणुकात् आरभ्य पदार्थानां मध्ये भेदज्ञापनं शक्यं, यतोहि अवयवाः सन्ति तत्र. किन्तु परमाणुस्तरे तत् शक्यं वा?
न. किमर्थम् इत्युक्ते अवयवः नास्ति, अवयवभेदः अपि न कर्तुं शक्यते.
हा हा, समीचीनं भगिनि इति वा. अस्तु, अग्रे
क्षम्यताम्, एकः प्रश्नः अस्ति. क्षम्यताम्, अत्र प्रथमवाक्यं द्वयणुकपर्यन्तम् अवयवभेदात् अवयवी भेदः, तत्र अवयवी इति कीदृशरूपम्?
अवयवी, अवयवी इति इनि प्रत्ययः एव भगिनि.
अवयवी, अवयवी अस्तु इत्युक्ते घटः, घटः इति.
हा, घटः इति. किन्तु अत्र अवयवी कः अस्मिन् प्रसङ्गे?
पुनः भगिनि,
अस्मिन् प्रसङ्गे अवयवी कः?
यत्र द्वयणुकम् इति अस्ति, अत्र द्वयणुकम् इति अवयवी.
अवयवी तत्र वस्तुतः भगिनी, तत्र गुणिन् इति प्रातिपदिकमस्ति खलु, नकारान्तः, तद्वत् अवयविन् इति प्रातिपदिकः प्रातिपदिकमस्ति. तत्र ह्रस्व इकारः प्रदर्शितः, यतोहि समासे नकारः गच्छति. अवयवी कः अत्र इति जानाति खलु? किमस्ति तत्र
अवयवी? द्वयणुकं खलु?
द्वयणुकमेव, समीचीनम् इति अस्ति. नपुंसकलिङ्गे ह्रस्व इकारः भवति, अवयवी गुणि तद्वत् द्वयणुकम् इति अवयवी अस्ति नपुंसकलिङ्गे.
नपुंसकलिङ्गे, ओ अस्तु अस्तु, धन्यवादः.
अस्तु, समीचीनम्. अस्तु, अग्रे राधिका भगिनी.
न्यायशास्त्रस्य मतानुसारं सर्वेपि पदार्थाः परस्परं भिन्नाः. किमपि वस्तुद्वयम् इति चिन्तयतु. वस्तुद्वयं समानं न इति सिद्धान्तः. द्वयणुकपर्यन्तम् अयं भेदः साध्यते अवयवभेदात्. अधुना परमाणुद्वयं परस्परभिन्नम् इति वक्तव्यम्. कथं वक्तुं शक्यते? यतोहि परमाणोः अवयवाः न सन्ति खलु, तदर्थं विशेषः इति पदार्थः स्वीकृतः. सर्वेषु अपि परमाणेषु पृथक् पृथक् विशेषनामकः कश्चन पदार्थः भवति. अस्तु, न्यायशास्त्रस्य मतानुसारं सर्वेपि पदार्थाः परस्परं भिन्नाः. वयं जानीमः सर्वेषु पदार्थेषु भिन्नभिन्नरीत्या भिन्नम् इति भिन्नाः इति जानीमः. किमपि वस्तुद्वयम् इति चिन्तयतु. वस्तुद्वयं समानं न इति सिद्धान्तः. न्यायशास्त्रसिद्धान्तः अस्ति वस्तुद्वयं समानं न भवति इति. द्वयणुकपर्यन्तम् अयं भेदः साध्यते अवयवभेदात्. यदि परमाणुद्वयम् अस्ति चेत् द्वयणुकः, तत्र वयं वक्तुं शक्यते अवयवभेदात् भिन्नः अस्ति इति. परन्तु अधुना परमाणुद्वयं परस्परभिन्नम् इति वक्तव्यं. तत् कथं वक्तुं शक्यते?
अस्तु भगिनि, एकं स्पष्टीकर्तव्यम्. अत्र एकदृष्ट्या द्वयणुकपर्यन्तम् इति समीचीनमेव. इत्युक्ते एकं बृहत् वस्तु स्वीकरोतु, खण्डनं कृत्वा 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 अधः आगच्छति चेत् तदा द्वयणुकपर्यन्तम् अवयवभेदात् अवयविभेदः शक्यः इति विवक्षा स्यात् तत्र महोदयस्य.
अस्तु
तर्हि
तदनन्तरं द्वयणुकपर्यन्तं वयं वक्तुं शक्नुमः, परन्तु यदि परमाणु इति स्वीकुर्मः चेत् न वक्तुं शक्नुमः, तदेव वार्ता अस्ति खलु.
सम्यक् भगिनि, इति एव वार्ता.
अधुना परमाणुद्वयं परस्परभिन्नम् इति वक्तव्यं. तत् कथं वक्तुं शक्यते, यतोहि परमाणोः अवयवाः न सन्ति खलु. इति वयं इदानीमेव चर्चां कृतवन्तः. द्वयोणकपर्यन्तं वयं वक्तुं शक्नुमः, परन्तु परमाणुः इति स्वीकुर्मः चेत् अवयवः नास्ति. तस्मात् कारणार्थम् अवयवभेदः इति न वक्तुं शक्नुमः. तदर्थं विशेषः इति पदार्थः स्वीकृतः. सर्वेषु अपि परमाणेषु पृथक् पृथक् विशेषनामकः कश्चन पदार्थः भवति. इदानीं विशेषः इति विशेषः कः इति प्रश्नस्य उत्तरं प्राप्तं. पृथक् पृथक् विशेषनामः कश्चन पदार्थः परमाणुषु अस्ति इति.
इत्युक्ते समीचीनं भगिनि, तर्हि बुद्धं स्यात् खलु सर्वं. परमाणोः अवयवाः न सन्ति, तदर्थं विशेषः इति पदार्थः आवश्यकः आसीत् इति वार्ता. अपि च पृथक् पृथक् विशेषः, प्रत्येकस्मिन् परमाणौ पृथक् विशेषः. अस्तु, अग्रे सरेम. तर्हि प्रश्नः वा कस्यचित्? अस्तु, शिवरां महोदय अग्रे कृपया. न महोदय, अस्मिन् परमाणौ विशेषः इति पदार्थः पश्यति वा तत्र?
अस्मिन् परमाणु विशेषः इति पदार्थः, तस्मिन् परमाणौ अन्य कश्चन विशेषः इति पदार्थः, स च विशेषः किं स्वरूपः? तस्मिन् प्रसङ्गे किमपि वक्तुं न शक्नुमः, तस्य परमाणोः विशेषः तावदेव. येषां विशेषणानां समानत्वं कदापि वक्तुं न शक्नुमः, यतोहि तेषाम् अस्तित्वम् एव एतदर्थं यत् सर्वे परमाणवः भिन्नाः. समानत्वं यदि उच्येत् तर्हि विशेषद्वारा परमाणूनां परस्परभेदसाधनं न शक्यते. अस्मिन् परमाणो विशेष द्वयोः परमाणोः मध्ये विशेष नाम्ना एकः पदार्थः तत्र स्वीकृतः अस्ति, सः विशेषपदार्थः.
द्वयोः परमाणोः मध्ये इति उक्तं भवता खलु?
न, द्वयोः परमाणे मध्ये न,
पृथक् पृथक् विशेषः.
हा, पृथक् पृथक् विशेषः. एकस्मिन् परमाणो मध्ये विशेषः अस्ति, अन्यस्मिन् परमाणु अपि विशेषः इति एकः पदार्थः अस्ति. हा, तस्मिन् परमाणु अन्य कश्चन विशेषः इति पदार्थः. स च विशेषः किं स्वरूपः? तस्मिन् प्रसङ्गे किमपि वक्तुं न शक्नुमः, तस्य परमाणोः विशेषः तावदेव. येषां विशेषणानां समानत्वं कदापि वक्तुं न शक्नुमः. द्वयोः परमाणोः मध्ये विशेषः इति एकः पदार्थः अस्ति, तत् विशेषत्वस्य भिन्नत्वेन द्वयोः परमाणोः मध्ये भेदः वयं वक्तुं शक्नुमः. द्वयोः परमाणोः मध्ये विशेषत्वं स्वीकृत्य, यतोहि तेषाम् अस्तित्वम् एव तदर्थं यत् सर्वे परमाणवः भिन्नाः. तत्कारणेन सर्वानां परमाणवानाम् अस्तित्वं भिन्नप्रकारेण वयं स्वीकर्तुं शक्नुमः विशेष इति पदार्थस्वीकरणेन. समानत्वं यदि उच्येत् तर्हि विशेषद्वारा परमाणूनां परस्परभेदसाधनं न शक्यते. यदि वयं विशेष इति पदार्थं न स्वीकुर्मः चेत् परमाणुमध्ये परस्परभेदः वयं द्रष्टुं वा वयं वक्तुं न शक्नुमः यदि विशेषः इति पदार्थः नास्ति चेत्।
हा तर्हि विशेषाणां न कदापि समानत्वम् अस्ति, सर्वे विशेषाः पृथक् पृथक् एव, यतोहि परमाणूनां भेदमध्ये भेदस्थापनमेव तेषां कार्यं खलु। तत् कार्यं पूरयितुं विशेषाः न कदापि समानाः। अस्तु महोदय, अग्रे वदतु।
परमाणु मध्ये विशेषः अस्ति, अन्यस्मिन् परमाणु मध्ये अपि विशेषः अस्ति। विशेषभेदेन परमाणुभेदः अपि वयं स्थापितुं शक्नुमः विशेषभेदेन।
सम्यक् इति वार्ता
भगिनी। भगिनी विशेषः इत्युक्ते किं? विशेषः इत्युक्ते कः? आत्मावत्
न भगिनि, अस्माभिः दृष्टं खलु सप्तपदार्थाः के?
एतत् बुद्धं विशेषः। विशेषः इत्युक्ते किं?
विशेषः इति अन्यतमः पदार्थः, द्रव्यगुणकर्म सामान्य विशेषः समवायः
परमाणुषु विशेषः वर्तते
खलु? सत्यं।
विशेषः इत्युक्ते अर्थः कः?
विशेषः इति एकः पदार्थः तावदेव। द्रव्यम् इत्युक्ते अर्थः कः?
द्रव्ये गुणे कर्म एतानि सर्वाणि सन्ति किल।
सत्यं तद्वत् यथा द्रव्यगुणकर्म समवायः
उदाहरणद्वारा वक्तुं शक्नुमः द्रव्यम् इत्युक्ते
विशेषः इति कश्चन पदार्थः नित्यम् अस्ति। न, उदाहरणम् एवमेव ददामि। विशेषः कश्चन पदार्थः परमाणुषु वर्तते, तावदेव स्वीकर्तव्यम्।
अस्तु,
परमाणुं न द्रष्टुं शक्नुमः खलु?
सत्यं।
हा तर्हि विशेषमपि न द्रष्टुं शक्नुमः, विशेषः घटवत् नास्ति। अस्तु, सैद्धान्तिकरीत्या एकः पदार्थः आवश्यकः आसीत् परमाणूनां मध्ये भेदज्ञापनार्थं, सः एव पदार्थः विशेषः।
धन्यवादः।
अग्रे इष्टग्रां महोदय, अग्रे प्रश्नः इति
अहमेव पठामि।
हा प्रश्नः, तस्य उत्तरं
पठतु। प्रश्नः, किन्तु यथा पुस्तकत्वम् इत्यस्य कथनेन अपि सर्वाणि पुस्तकानि समानानि सन्ति इति नास्ति, इति यथा ज्ञातं तथैव विशेषत्वम् इत्यस्य जातेः कथनेन तस्य अर्थः नस्त्येव यत् सर्वे विशेषाः समानाः। तत्र प्रश्नः अस्ति, किन्तु यथा पुस्तकत्वम् इत्यस्य कथनेन अपि सर्वाणि पुस्तकानि समानानि सन्ति इति नास्ति, इति यथा ज्ञातं तथैव विशेषत्वम् इत्यस्य जातेः कथनेन तस्य अर्थः, किञ्चित् प्रश्नस्य अवगमनं न अभवत्। पुस्तकत्वम् इति वयं वदामः, तर्हि सर्वाणि पुस्तकानि समानानि तु नास्ति, पुस्तकत्वं तु अस्ति किन्तु पुस्तकानि तु समानानि नास्ति।
हा खलु महोदय, किं नावगतं प्रश्ने?
इति यथा ज्ञातं तथैव विशेषत्वम् इत्यस्य जातेः कथनेन तस्य अर्थः न तु एव यत् सर्वे विशेषः समानाः।
हा नाम अत्र पुस्तकानि सन्ति, पुस्तकानि समानानि इति जानीमः सर्वाणि पुस्तकानि, परन्तु विशेषाः अपि बहवः सन्ति खलु? नित्यद्रव्यवृत्तयो विशेषाः, विशेषाः अनन्ताः। तर्हि अस्माकं मनसि प्रश्नः उदेति यद् अस्तु, विशेषाः तावन्तः सन्ति, ते सर्वे समानाः वा इति प्रश्नः स्यात्। तर्हि समानाः सन्ति चेत् यथा पुस्तकत्वं तद्वत् विशेषत्वम् इति आगच्छति वा जातिः इति अपि प्रश्नः स्यात् किल? पुस्तकानि भिन्नानि, तथापि पुस्तकेषु किमस्ति? पुस्तकत्वमस्ति। अस्तु भवतु, नाम विशेषाः अपि बहवः भिन्नाः सन्ति इति स्वीकुर्मः, परन्तु तेषु सर्वेषु विशेषत्वम् इति एका जातिः विद्यते न वा इति प्रश्नः। उत्तरम्
उत्तरं पुस्तकेषु सर्वत्र अपि समानः कश्चन धर्मः पुस्तकत्वं भवितुम् अर्हति पुस्तकत्वं भवितुम् अर्हति यत् परस्परभेदः साध्यते अवयवभेदात् विशेषेषु यदि समानः विशेषत्वं स्वीक्रियेत् तर्हि विशेषेषु समानत्वम् आनीतं तदा अवयव अभावात् सर्वे अपि विशेषः समानः एव सर्वे विशेषः समानः चेत् एकः परमाणु द्वितीयात् भिन्ना इति वक्तुं न शक्षति अतः विशेषत्वम् इति जातिः नास्ति अत्र पुस्तकेषु सर्वत्रापि समाना सर्वेषु पुस्तकेषु पुस्तकत्वम् इति एकः धर्मः समानमस्ति यत् परस्परभेदः साध्यते अवयवभेदात् किन्तु पुस्तकेषु भेदाः अवयवभेदात् नाम एकस्य पुस्तकस्य अवयवः तथा अन्यस्य पुस्तकस्य अवयवः भिन्नः अस्ति तर्हि एकपुस्तकः अपरं पुस्तकात् भिन्नम् अवयवभेदेन वयं ज्ञातुं शक्नुमः तत्र अवयवभेदः अस्ति किन्तु पुस्तकत्वं तु समानम् अस्ति विशेषेषु यदि समानः विशेषत्वं स्वीक्रियेत् तर्हि विशेषेषु समानत्वम् आनीतं तदा अवयव अभवत् सर्वे अपि विशेषः समानः एव किञ्चित् न अवगतम्
अत्र विशेषः इत्यस्य अवयवाः न सन्ति इति सत्यं वा विशेषः इत्यस्य अवयवः न सन्ति खलु यथा पुस्तकं पुस्तकेषु अवयवभेदात् तद्वद् विशेषेषु अवयवभेदात् भेदस्थापनं न शक्यं यत्र अवयवभेदः अपि नास्ति तत्र यदि वयं समानत्वं स्वीकुर्मः जातिरूपेण तत्र किं भवति सर्वे विशेषाः समानाः इति आगच्छति खलु तथा सर्वे विशेषाः समानाः इति यदि अभविष्यत् तर्हि किं परमाणुषु भेदज्ञापनं स्थापयितुं
न शक्नुमः
अस्तु अतः निष्कर्षः कः
अतः विशेषत्वम् इति जातिः नास्ति विशेषत्वम् इति एकः जातिः नास्ति नाम एकस्मिन् परमाणु मध्ये यः विशेषः अस्ति तथा अन्यस्मिन् परमाणु मध्ये यः विशेषः अस्ति तत् विशेषत्वं भिन्नम् अस्ति तत्कारणेन विशेषत्वम् इति समानरूपेण वयं तत् स्वीकर्तुं न शक्नुमः तत् तस्य जातिः न भविष्यति विशेषत्वस्य
समीचीनं विशेषत्वम् इति जातिः नास्ति धर्मः एव इति वक्तुं
शक्नुमः अधुना अवगतम्
अस्तु सम्यक् सर्वेषां मनसि स्पष्टता अस्ति वा अस्तु अग्रे सरेम सरला भगिनी न पठति इति विद्या भगिनी अग्रे पठति
अस्तु भगिनि प्रश्नः अस्तु विशेषभेदात् परमाणुभेदः साधितः किन्तु द्वयोः विशेषयोः भेदः कथं साध्यते इदानीं विशेषे पुनः अन्यपदार्थं वयं स्वीकर्तुं न शक्नुमः तर्हि अत्र प्रश्नः अस्ति इदानीमेव वयं दृष्टवन्तः विशेषभेदात् परमाणुभेदः साधितः इत्युक्ते विशेषभेदेन परमाणुयोः भेदः साधितुं शक्यते इति किन्तु विशेषे पुनः द्वयोः विशेषयोः भेदः कथं साध्यते इति चेत् तत्र पुनः अन्यपदार्थं स्वीकुर्मः वा इति प्रश्नः उत्तरमस्ति तत्र विशेषस्य प्रमुखलक्षणम् इत्युक्ते स्वतोव्यावर्तकत्वम् इत्युक्तौ स्वस्य भेदं स्वयं साधयति स्वयम् आत्मानम् अन्यस्मात् पृथक् करोति इत्यर्थः परमाणुवोः द्वयोः भेदं विशेषः साधयति द्वयोः विशेषयोः भेदं कः साधयति इति प्रश्नः तर्हि अत्र विशेषस्य प्रमुखलक्षणं पूर्वं वयं दृष्टवन्तः पूर्वं भवती उक्तवती तत्र विशेषे स्वतोव्यावर्तकत्वम् इति धर्मः वर्तते अत्र स्वतोव्यावर्तकत्वम् इत्युक्ते विशेषः इति पदार्थः स्वयमेव स्वस्य भेदं निरूपयति. तस्य विशेष द्वयोः पदार्थयोः द्वयोः विशेषयोः भेदः स्वयमेव साधयति. अत्र अन्यस्मिन् पदार्थस्य अन्यपदार्थस्य आवश्यकता नास्ति. स्वयमेव पृथक् करोति इति अस्ति अत्र.
किमर्थम् आगतः अयं प्रश्नः इति अवगच्छति खलु भगिनि?
हा हा, वयं तु द्वयोः परमाणवोः भेदः ज्ञातुं विशेषः इति पदार्थः वयम् आनीतः. इदानीं पुनः द्वयोः विशेषयोः भेदः ज्ञातुमिच्छामः चेत् तर्हि पुनः अन्यपदार्थम् आनयामः चेत् तर्हि तस्य भेदज्ञापनार्थं पुनः अन्यपदार्थम् आनयामः.
विद्या भगिनी, भवत्याः ध्वनिः गतः. हरि ओम्, मम ध्वनिः श्रूयते वा?
श्रूयते किं? श्रूयते वा?
हा विद्या भगिनी, अधुना श्रूयते, वदतु.
हा हा, अहं किं कुतः पर्यन्तं श्रुतवती भवती?
नूतनपदार्थः आनीयते चेत् तदा किम् अभवत्?
हा, यदा नूतनपदार्थ इदानीम् अत्र द्वयोः परमाणवोः भेदः ज्ञातुं विशेषः इति पदार्थः आनीतः. इदानीं पुनः द्वयोः विशेषयोः भेदं ज्ञातुम् इच्छामः चेत् तर्हि अन्यः पदार्थः अन्यः पदार्थः आनयामः चेत् तर्हि पुनः तस्य भेदः ज्ञातुं पुनः अन्यपदार्थम् आनयामः, तर्हि तस्य अन्तः एव न भवति. अतः तत्र विशेषपर्यन्तमेव वयं स्थगयामः.
अपि च विशेषाः समानाः न भवन्ति इति पूर्वं पठितं शिवराम महोदयेन, यत् पठितं तत्र
अतः जातिः नास्ति.
समानत्वम् आनीयते चेत् अवयवभेदाभावात् तत्र पुनः विशेषाः समानाः भवन्ति, तदपि न इष्टं. तर्हि विशेषेषु स्वतो व्यावर्तकत्वम् इति कश्चन धर्मः विद्यते. स्वस्य भेदं स्वयं साधयति. अस्तु भगिनि, अग्रे अपि पठतु पुनः उत्तरं.
पुनः उत्तरं, द्वयोः विशेषयोः भेदं स्वयं साधयति, न तु अन्येन साध्यते. विशेषत्वम् इति जातिः स्वीक्रियेत चेत् तर्हि स्वतो व्यावर्तकत्वम् इति नष्टम्. अतः धर्मरूपेण विशेषत्वं वक्तुं शक्यं, किञ्च जातिरूपेण न. तच्च विशेषत्वं प्रत्येकस्मिन् विशेषे भिन्नम् एव. अनया रीत्या एव
एकनिमिषं शिवराम कुलकर्णी महोदय, भवता म्यूट् करणीयं किञ्चित्.
अनया रीत्या एव स्वतो व्यावर्तकत्वं स्थास्यति. तर्हि अत्र पुनः प्रश्नः अस्ति, द्वयोः विशेषयोः भेदं स्वयं साधयति, न तु अन्येन साधयति इति. तत्र यदि विशेषत्वम् इति जातिः वयं स्वीकुर्मः चेत् तर्हि तत्र किं भवति इत्युक्ते पुनः समानानां धर्मः इति भवति. तर्हि प्रत्येकस्मिन् परमाणुः इत्यस्य सप्तमी परमाणौ क्षम्यतां, प्रत्येकस्मिन् परमाणौ विशेषत्वम् इति जातिः भवति. तर्हि समानः जातिः, तर्हि तत्र भेदः ज्ञातुं न शक्नुमः. अतः जातिः इति न स्वीकुर्मः. जातिः स्वीकुर्मः चेत् तत्र स्वतो व्यावर्तकत्वं नष्टं भवति, यतोहि तत्र स्वयं भेदं स्वस्य भेदं साधयितुं न शक्नोति जातिः इति स्वीकुर्मः चेत्. अतः विशेषत्वम् इति धर्मरूपेण एव स्वीकुर्मः. धर्मरूपेण स्वीकुर्मः चेत् तत्र द्वयोः परमाणवोः भेदः भेदं ज्ञातुं शक्नुमः. तच्च विशेषत्वं प्रत्येकस्मिन् विशेषे भिन्नम् एव. अनया रीत्या एव स्वतो व्यावर्तकत्वं स्यास्यति. अतः एव विशेषः इति पदार्थः विशेषत्वम् इति धर्मः भिन्नः. प्रत्येकस्मिन् परमाणौ विशेषः इति पदार्थः भिन्नः.
समीचीनं भगिनि. तर्हि जातिः इति तदा आगच्छति यदा अवयवाः सन्ति. इति एतावत्पर्यन्तम् अवगच्छामः. पुस्तकेषु अवयवाः सन्ति, पुस्तकत्वम् इति धर्मः तदा जातिः भवति, घटत्वं पटत्वम् इत्यादिकं. किन्तु यत्र अवयवभेदः नास्ति तत्र जातिः इति न स्वीकुर्मः, केवलं धर्मः, विशेषत्वम् आकाशत्वं तथा अपि च स्वत्तो व्यावर्तकत्वम् इति विशेषः धर्मः अस्ति, विशेषे इति स्वीकुर्मः. अस्तु, सर्वेषां मनसि स्पष्टता अस्ति वा अस्य विषये?
तर्हि भगिनी, स्वतो व्यावर्तकत्वम् इति धर्मः केवलं विशेषे एव अस्ति. विशेषः इति पदार्थः नित्यद्रव्येषु अस्ति इति कृत्वा स्वतो व्यावर्तकत्वं नित्यद्रव्येषु अपि अस्ति इति वक्तुं शक्नुमः वा?
न, तत्र स्तरः तथैव अस्ति. एकस्मिन् स्तरे नित्यद्रव्यम् अस्तु, तस्मात् उपरि सोपानेन गच्छतु, तदा अधोभागे नित्यद्रव्यमस्ति, तस्मिन् विशेषः अस्ति, विशेषे स्वतो व्यावर्तकत्वम् अस्ति, तथा एव.
अस्तु
अस्तु
अस्तु भगिनि,
सम्यक्. इतः अग्रे, हा, सुमित् भानुचैतन्यमहोदय न पठति इति, सुमित्रा भगिनी.
आं भगिनि, श्रूयते वा?
हा, श्रूयते भगिनि.
विशेषे पुनः अन्यं पदार्थं किमर्थं स्वीकर्तुं न शक्नुमः? उत्तरं, विशेषे अन्यं पदार्थं स्वीकुर्मः चेत् यस्य द्वारा विशेषाः
भिद्यन्ते
तर्हि तस्य भेदार्थं पुनः नूतनपदार्थः अपेक्षितः, तदा पुनः च तस्य भेदार्थं नूतनः पदार्थः. अस्य क्रीडस्य न कोऽपि अन्तः, अतः अत्र अनवस्थादोषः इति उच्यते. तर्हि विशेषः अन्तिमः एव भवेत्. विशेषः पुनः अन्यं पदार्थं,
किम् अवगतवती प्रश्ने?
किमर्थम् अन्यपदार्थं स्वीकर्तुं न शक्नुमः इति प्रश्नः विशेषे, विशेषविषये.
हा, इत्युक्ते परमाणौ विशेषः भेदस्थापनार्थम् इति उक्तं खलु, पुनः विशेषाणां मध्ये पुनः इतोपि एकः पदार्थः भवतु भेदस्थापनार्थम् इति किमर्थं न स्वीकुर्मः इति प्रश्नः.
किमर्थम् इत्युक्ते पुनः पुनः नूतनपदार्थं स्वीकृत्य चर्चां कृत्वा अन्तः विना गच्छति इति कारणात्.
समीचीनं भगिनि, इति एव वार्ता अस्ति.
अन्तिमं न अस्ति विशेषे, यदा स्वीकुर्मः चेत् अन्तिमम् इति कोऽपि न स्वीकर्तुं न शक्नुमः, अतः एव अन्यपदार्थं स्वीकर्तुं न शक्नुमः इति उत्तरम्.
हा, इत्युक्ते विशेषः एव अन्तिमपदार्थः.
आम् आम्, विशेषः एव अन्तिमम्
इति स्वीकुर्मः, यतोहि तथा गच्छति चेत् अनवस्थादोषः इति आगच्छति.
इत्युक्ते अवयवं कर्तुं न शक्नुमः इत्यपि अर्थः खलु, खण्डनं कर्तुं न शक्नुमः.
हा, सत्यम्, इति एका वार्ता. परमाणुस्तरे एव तत् स्थगितं, खण्डनं न कर्तुं शक्नुमः इति.
परमाणु स्तरे एव अवगच्छति.
हा, परमाणुस्तरे तत् स्थगितम् इति कृत्वा अस्तु, तत्र अवयवाः न सन्ति परमाणुस्थापनार्थं विशेषः, पुनः विशेषाणां मध्ये भेदस्थापनं स्थापनार्थम् अपरः पदार्थः इति तावत् कियत्पर्यन्तं गन्तुं शक्नुमः इति. अस्तु, तर्हि कुत्रचित् स्थगनीयम्, अत्र स्थगयामः इति विशेषस्तरे स्थगितमस्ति. अस्तु भगिनि, अग्रिमप्रश्नम्.
अदर्वैस् इट् विल् बिकम् इन्फिनैट्, साधु वा?
हा, सत्यं भगिनि, इति वक्तुं शक्यते. कियत्पर्यन्तं? अग्रे भगिनि, सुमित्रा भगिनि.
अस्तु इति मन्ये प्रश्नः, अतु इति इति
कश्चन दोषः, चङ्कनदोषः तावदेव.
अस्तु अस्तु, परन्तु परमाणुषु एव स्वतोव्यावर्तकत्वम् अस्ति इति किमर्थं न वदेम? यदि विशेषे स्वतोव्यावर्तकत्वम् अध्यारोपितं तर्हि किमर्थं न साक्षात् परमाणुषु स्वतोव्यावर्तकत्वम् अध्यारोपितं भवेत्? एवं चेत् विशेषस्य कापि आवश्यकता न स्यात्।
प्रश्नम् अवगच्छति वा भगिनि?
स्वतो व्यावर्तकत्वम् इति स्वयं पृथक् कदा इति वक्तुं साध्यते इति अर्थः, परमाणुषु एवम् अस्ति इति किमर्थं न वदामः? परमाणुषु एव वदामः किल, स्वतो व्यावर्तकम् अस्ति इति न वा?
स्वतो व्यावर्तकत्वं कुत्र अस्ति? विद्या भगिनी पठितवती
आम्, विशेषस्य लक्षणम् इति स्वयं भेदं साधयति, स्वयम् एव साधयति।
स्वस्य भेदं स्वयं साधयति इति, परन्तु अत्र प्रश्नः अस्ति, अस्तु परमाणुतः विशेषपर्यन्तं गत्वा विशेषे स्वतो व्यावर्तकत्वम् इति स्वीकुर्मः खलु, तद् स्वतो व्यावर्तकत्वं वयं प्रायः परमाणुषु एव स्वीकर्तुं शक्नुमः इति प्रश्नः। यदि विशेषे स्वतो व्यावर्तकत्वम् अध्यारोपितं तर्हि किमर्थं न साक्षात् परमाणवेव स्वतो व्यावर्तकत्वम् अध्यारोपितं, पुनः
विशेषे एव स्वीकुर्मः न तु परमाणुषु किमर्थम् इति
प्रश्नः।
अस्तु अस्तु, उत्तरं पठामि। उत्तरमस्ति यत् परमाणुषु स्वतो व्यावर्तकत्वं न अर्हं यतोहि पार्थिवादि द्रव्येषु स्वतो व्यावर्तकत्वम् इति गुणः कुत्रापि नास्ति। यथा घटद्रव्यम् अवयवभेदात् घटेषु भेदः ज्ञायते, अधुना घटः पटात् भिन्नः इति प्रतीतिः एव प्रमाणम्। अयं घटः इति ज्ञानम्, अयं पटः इति ज्ञानम्, तस्मात् ज्ञानद्वयात् भेदं तत्र साधयति। परन्तु घटात् घटः भिन्नः कथम् इति चेत् अवयवभेदात् परस्परघटभेदः, एवं च अनित्यद्रव्येषु भेदस्य साधनार्थं ज्ञानस्य वा अवयवस्य वा आवश्यकता अस्ति। अतः पार्थिवादिद्रव्येषु स्वतो व्यावर्तकत्वं नास्ति। पार्थिवादि इत्युक्ते किमर्थं भगिनि न अवगच्छति किम् इति?
पृथिवी इति अवगच्छति खलु, पृथिव्याः सम्बद्धम् इति पार्थिवम्।
अस्तु अस्तु
अस्तु,
इत्युक्ते तत्र गुणः न भविष्यति?
न पृथिवी पार्थिवद्रव्यम् इत्युक्ते पृथिवी द्रव्यं,
गुणः अस्ति
पृथिवी सम्बद्धं तावदेव।
अस्तु भगिनि अवगच्छतु।
एवं चिन्तयतु, एवं चिन्तयतु, पृथा इति अस्ति खलु, पार्थः इत्युक्ते अर्जुनः, किमर्थं पृथायाः?
अस्तु अस्तु अस्तु, पृथा
तदर्थं पृथिवी, पार्थिवम् इत्युक्ते पृथिवी सम्बन्धम्
अवगच्छतु।
तर्हि भगिनि प्रश्नः, अत्र पार्थिवादी इत्युक्ते तत्र जलं तेजः वायुः तत्सर्वमपि अस्ति वा? अस्तु अस्तु, केवलं तत्र नित्यद्रव्यमेव त्यक्त्वा, नित्यद्रव्यान् त्यक्त्वा। अस्तु
अस्तु, सुमित्रा भगिनी अधुना वदतु, परमाणुषु
स्वतो व्यावर्तकत्वं न अर्हति
यतोहि
पृथ्वी इत्यादिद्रव्येषु स्वत्वव्यावर्तकत्वम् इति गुणः, स्वत्वव्यावर्तकत्वम् इति गुणः द्रव्येषु नास्ति, पार्थिवादिद्रव्येषु नास्ति इति।
अत्र किञ्चित् वदामि, अत्र न्यायशास्त्रस्य सिद्धान्तः कः इति चेत्, यः कोऽपि गुणः अथवा यः कोऽपि धर्मः अवयवेषु अस्ति सः गुणः धर्मः उपरि उपरि गत्वा अवयविनि अपि भवति। इत्युक्ते घटस्य रूपम् अस्ति इति चिन्तयतु, घटः इति पार्थिवद्रव्यम्, घटस्य परमाणवः सन्ति खलु, यथा राधिका भगिनी पठितवती आसीत् तत्र परमाणुद्वयं मिलित्वा द्वयणुकं, तर्हि द्वयणुकानि त्रयणुकम् अभवत्, चत्वारि त्रयणुकानि मिलित्वा चतुरणुकम् अभवत्, तत्र उपरि गत्वा यः कोऽपि गुणधर्मः तत्र अधोभागे अस्ति अवयवस्तरे तत्सर्वम् अवयविनी आगच्छति इति वार्ता
अस्तु.
अधुना अस्माकं प्रश्नः कः, स्वतो व्यावर्तकत्वम् इति किमर्थं परमाणुषु नास्ति इति प्रश्नः. हा, परमाणुषु तदर्थं नास्ति इति स्वीक्रियते यतोहि किम्, उपरि गत्वा गत्वा परमाणुनां मेलनेन पार्थिवादिद्रव्याणि जायन्ते खलु, घटः पटः अथवा जलीयद्रव्यं यत्किमपि जायते परमाणुस्तरे परमाणुतः, तत्र उपरि गत्वा गत्वा अवयविनः स्तरे स्वतो व्यावर्तकत्वम् इति गुणः अथवा धर्मः न स्वीक्रियते, कुत्रापि नास्ति तत्र.
अस्तु,
अतः एव किम्,
अतः एव स्वतो व्यावर्तकत्वं न अस्ति तत्र परमाणुषु.
हा, इति वार्ता अस्ति. अस्तु, अग्रे पठतु. एतावता बुद्धं वा?
आम् आम् अवगच्छति.
अस्तु, अधुना पठतु. यथा
यथा घटद्रव्यम् अवयवभेदात् घटेषु भेदः ज्ञायते. अवयवं कर्तुं शक्नुमः इति कारणात् भेदम् अपि कर्तुं शक्नुमः घटेषु. अधुना घटः पटात् भिन्नः इति प्रतीतिः एव प्रमाणम्. प्रतीतिः इत्युक्ते घटः पटात् भिन्नम् इति
हा इति ज्ञानमस्ति खलु अस्माकम्. अग्रिमवाक्यं पश्यतु, अयं घटः इति ज्ञानम्.
यथा द्रक्ष्यामः घटः पटः इति भेदं कर्तुं शक्नुमः इति वा?
हा, किमर्थं कर्तुं शक्नुमः तथा? यतोहि वयं जानीमः एव,
जानीमः प्रतीतिः अस्ति अस्माकं.
हा, प्रतीतिः इति विहाय अपि अवयवभेदं द्रष्टुं शक्नुमः खलु तत्र तत्र.
आम् आम्, दृष्ट्वा अवयवं कर्तुं शक्नुमः, एतत् घटः एतत् पटः इति. अयं घटः इति ज्ञानम्, अयं पटः इति अपि ज्ञानम् अस्ति अस्माकं. तस्मात् ज्ञानद्वयात् भेदं तत्र साधयति. अस्तु, वयं जानीमः ज्ञानम् अस्ति इति कारणात् भेदं कर्तुं शक्नुमः, साधयितुं शक्नुमः. परन्तु घटात् घटः भिन्नः कथम् इति चेत्, अवयवभेदात् परस्परघटः भेदः, परस्परं द्वयोः घटयोः मध्ये भेदः भिन्नम् इति कथं वक्तुं शक्नुमः चेत्, अवयवभेदात् एव, न्यतो ज्ञानदृष्ट्या. साधु वा?
हा, अवयवभेदं दृष्ट्वा ज्ञानम् उदेति अस्माकम्.
आम् आम्, अवयवभेदात् वि आर् एबल् टु सेपरेट् इड् बै saying this is a different and that is a different one. Evam cha anitya dravyeshu bhedasya sadhanartham jnanasya va avayavasya va avashyakata asti. Anitya dravyeshu,
anitya dravyani kani,
kshamyatam bhagini na smarami,
prithvi jalam tejah vayuh अनित्यं, यतोहि तेषां नाशः जायते वा खलु. तर्हि यः कोऽपि पार्थिवद्रव्यं क्षम्यतां, यत्किमपि पार्थिवं द्रव्यं, यत्किमपि जलीयं द्रव्यं, यत्किमपि तैजसं द्रव्यं, यत्किमपि वायुवीयं द्रव्यं, तत्र तत्र अनित्यद्रव्याणि इति वदामः.
अस्तु, तत्र अवयवस्य ज्ञानम् आवश्यकम् अस्ति अस्माकम्. अतः पार्थिवादिद्रव्येषु स्वतो व्यावर्तकत्वं न अस्ति.
अस्तु, अवगच्छति वा?
आम् आम् अवगच्छति.
तर्हि अस्माकं मूलप्रश्नः आसीत्, परमाणुषु किमर्थं स्वतो व्यावर्तकत्वं न स्वीक्रियते? यतोहि परमाणुषु स्वीक्रियते चेत् परमाणुघटित अवयविषु अपि स्वीकर्तव्यं भवति स्वतो व्यावर्तकत्वम् इति. घटेषु पटेषु इत्यादिषु स्वीकर्तव्यं भवति, तद् न अङ्गीक्रियते. यतोहि अनित्यद्रव्यस्तरे अवयवभेदात् भेदज्ञापनं शक्यं, तत्र स्वतो व्यावर्तकत्वं नास्ति एव. अतः परमाणुषु अपि न स्वीकुर्मः. परमाणुषु यदि स्वीकुर्मश्चेत् तत्र दोषः आपतति. अवयविषु अपि स्वीकर्तव्यम् इति दोषः आपतति, तद् न इष्टं. तर्हि परमाणुषु स्वतो व्यावर्तकत्वं नास्ति, केवलं कुत्र अस्ति स्वतो व्यावर्तकत्वम्?
अनित्यद्रव्येषु एव.
स्वतवयवर्तकत्वं कुत्र अस्ति?
क्षम्यतां,
विशेषे.
अस्तु अस्तु, अवगच्छति.
विशेषे स्वतोव्यावर्तकत्वं
अस्ति, न तु परमाणुषु.
परमाणुषु, समीचीनम् इति वार्ता.
अस्तु,
कस्यचित् प्रश्नः वा कोऽपि अत्र?
महोदय, अन्यस्मिन् वार्ता यत् वक्तुं शक्नुमः किल, परमाणेषु परमाणुषु स्वतोव्यावर्तकत्वम् अस्ति, कारणम् इत्युक्ते तस्य भेदः न कर्तुं शक्नुमः, तस्य अवयवः नास्ति, अतः तस्य परमाणुषु स्वतोव्यावर्तकत्वम् अस्ति. अन्यत्र
एकनिमिष, परमाणुषु विशेषः अस्ति महोदय.
आम् आम्, विशेषस्य अवयवः नास्ति, विशेषस्य ज्ञानमपि न कर्तुं शक्नुमः, अतः स्वतोव्यावर्तकत्वम् इति स्वीकुर्मः चेत् अपि वयं ज्ञातुं शक्नुमः विशेषः कः. अन्यस्मिन् प्रसङ्गे ज्ञानम् अथवा अवयवः अस्ति, अतः वयं तस्य भेदं ज्ञातुं शक्नुमः.
सत्यम् इति एव वार्ता, तदर्थमेव अत्र उक्तम्, अनित्यद्रव्येषु भेदस्य साधनार्थं ज्ञानस्य वा अवयवस्य वा आवश्यकता अस्ति. इत्युक्ते तत्र प्रत्यक्षरूपेण ज्ञानं भवति, पटः घटः, एकः घटः अपरः घटः, प्रत्यक्षरूपेण ज्ञानं भवति अथवा अवयवभेदेन तत् शक्यं, परन्तु परमाणुस्तरे एव विशेषः इति स्वीकृतः, यतोहि परमाणुनां किं नास्ति? हा, अवयवः नास्ति. अपि च विशेषे स्वस्य भेदस्थापनार्थं स्वतो व्यावर्तकत्वम् इति धर्मः अङ्गीकृतः अस्ति. अधुना चर्चा जायमाना अस्ति यत् स्वतो व्यावर्तकत्वं परमाणुषु एव साक्षात् नास्ति, विशेषे एव भवेत्, यतोहि यदि परमाणुषु स्वतो व्यावर्तकत्वम् इत्यस्य स्वीकारः भवेत् तदा पार्थिवादिद्रव्येषु उपरि उपरि गत्वा परमाणवः अवयवाः भवन्ति खलु, अवयविनः, तत्रापि स्वतो व्यावर्तकत्वम् इति अङ्गीकार्यः भवेत्, तद् न इष्टं, तन्न इष्टम् इति कृत्वा विशेषे एव स्वतो व्यावर्तकत्वम्. अस्तु महोदय,
अस्तु, एकः प्रश्नः अस्ति क्षम्यतां, विशेषे स्वतो वर्तकत्वम् अस्ति, विशेषे परमाणुषु अस्ति किल, कारणेन परमाणौ अस्ति, विशेषे स्वतो वर्तकत्वम् अस्ति इति कारणेन स्वतो स्वतोव्यावर्तकत्वं परमाणुषु अस्ति इति वक्तुं न शक्यते.
परमाणुः अधोभागे, तस्य उपरि विशेषः, विशेषस्य उपरि स्वतोव्यावर्तकत्वम्.
अस्तु अस्तु अस्तु, धन्यवादः, धन्यवादः, क्षम्यतां.
न न, चिन्ता नास्ति, तादृशस्तरभेदः मनसि भवेत्. अस्तु
अस्तु, धन्यवादः भगिनि.
अस्तु तर्हि अग्रे मेहल महोदय, अग्रे एव भवानेव पठतु यत्र.
यत्र सामान्यं जाति इत्युक्ते जातिः सम्भवति, तत्र स्वतोव्यावर्तकत्वं न भवति, विशेषः न भवति, अयं घटः अयं घटः इति एकाकारप्रतीत्या घटे घटत्वम् इति सामान्यं सिद्धम्, अतः अनेन स्वतोव्यावर्तकत्वम् इति बाधितम् एव, किन्तु विशेषे जातिः सामान्यं नाङ्गीक्रियते, अततः तत्र स्वतोव्यावर्तकत्वं, विशेषः अन्यस्मात् विशेषात् भिन्नः, यदि विशेषे सामान्यं स्वीकृतं तर्हि तस्मिन् परस्परभेदः न सिद्ध्यति. अत्र वयं पूर्वं दृष्टवन्तः यत्र यत्र सामान्यम् इत्युक्ते जातिः सम्भवति तत्र स्वतोव्यावर्तकत्वं न भवति, तत्र इत्युक्ते विशेषः न भवति. अत्र एकम् उदाहरणं दत्तमस्ति, अयं घट अयं घटः इति वदामि चेत् एकाकारप्रतीत्या तत्र घटे घटत्वम् अस्ति इति सामान्यम् इति जातिः सिद्धम्. अतः तत्र स्वतो व्यावर्तकत्वम् इति स्वस्य सिद्धिं कर्तुं न शक्यते इति बाधितमस्ति. किन्तु विशेषे यदि विशेषः यदि विशेषे जातिः अथवा सामान्यं नाङ्गीक्रियते अततः तत्र स्वतोव्यावर्तकत्वम् इति वयं इति आवश्यकता अस्ति. विशेषः अन्यस्मात् किमर्थम् इत्युक्ते एकपरमाणुषु विशेषः अस्ति अन्यस्मिन् परमाणुषु अपि विशेषः अस्ति. तत्र विशेषविशेषमध्ये भेदः अस्ति. यदि विशेषे सामान्यं स्वीकृतं तर्हि वयं तस्मिन् परस्परभेदः किम् इति वयं न कर्तुं शक्नुमः. अतः विशेषः इति सामान्यं नास्ति. अपि च विशेषे अपि स्वतो व्यावर्तकत्वम् इति अस्ति. अन्यत्र द्रव्यं तत् सिद्धान्तं स्वतो व्यावर्तकत्वम् इति बाधितमस्ति.
नाम अन्ततो गत्वा निष्कर्षः एतावत्पर्यन्तं यत्किमपि पठितवन्तः तस्य निष्कर्षः अयं यत् विशेषे जातिः सामान्यं न अङ्गीक्रियते यतोहि विशेषस्य अवयवभेदं ज्ञापयितुं न शक्नुमः. तेन अवयवभेदाभावे यदि जातिः इति स्वीकुर्मश्चेत् सर्वे विशेषाः समानाः भवेयुः तन्न इष्टम्. अतः विशेषत्वम् इति जातिः नास्ति केवलं धर्मः एव. अपि च प्रत्येकस्मिन् विशेषे किं वर्तते महोदय?
प्रत्येकस्मिन् विशेषे स्वतो व्यावर्तकत्वं वर्तते.
समीचीनं. स्वतो व्यावर्तकत्वं जातिः वा धर्मः वा?
धर्मः.
धर्मः न तु जातिः. एकः विशेषः अपरस्मात् विशेषात् भिन्नः. किमर्थं? प्रत्येकस्मिन् स्वतो व्यावर्तकत्वम् इति वर्तते. यदि सामान्यं स्वीकुर्मः यथा अन्ते उक्तं परस्परभेदः विशेषस्य मध्ये विशेषाणां मध्ये न सिद्ध्यति तदर्थं तद्यक्तं तत्यक्त्वा स्वतो व्यावर्तकत्वम् इति धर्मः स्वीकृतः विशेषे. उद्दम्?
धन्यवादः.
हा अस्तु, अग्रिमप्रश्नमपि पठतु. प्रश्नं च उत्तरं समापयतु.
प्रश्नः: घटद्वयम् अस्ति, भेदः कथं ज्ञायते? अवयवभेदात् इत्युक्तं, परन्तु अवयवाः सर्वे समानाः इति भाति. दर्शनेन कपालाः सर्वे समानाः, तर्हि कथम् एभिः समान अवयवैः घटभेदः साधयितुं शक्यः? अत्र प्रश्नः अस्ति, यदि वयं घटद्वयं पश्यति चेत् तत्र भेदः अस्ति कथं ज्ञायते? तत्र वयं उत्तरमस्ति अवयवभेदः अस्ति. इत्युक्ते वयं ज्ञातुं शक्नुमः एतत् घटम् अपरस्मिन् घटः भेदः अस्ति. परन्तु यदि सर्वे अवयवाः समानाः भाति तर्हि कथं भेदः साधयितुं शक्यः? तस्य उत्तरम् अस्ति, यतोहि एते अवयवाः इत्युक्ते कपालाः, तन्तवः इत्यादयः अस्मिन् घटे अथवा पटे वा सन्ति, न तु तस्मिन्. अत्र उत्तरमस्ति, यदि अवयवाः समानाः भाति तर्हि प्रत्येकस्मिन् घटे अथवा पटे अवयवाः भिन्नाः अस्ति. अतः वयं ज्ञातुं शक्नुमः घट अपि च पट द्वयमस्ति, तर्हि ते तत्र भेदः अस्ति.
हा हा, समीचीनं महोदय. इत्युक्ते यद्यपि सर्वे कपालाः समानाः दृश्यन्ते तथापि कपालाः भिन्नाः इति सिद्धान्तः. न केवलं सिद्धान्तरीत्या, अधुना घटद्वयमस्ति इति चिन्तयतु, ए घटः बि घटः इति. कपालद्वयं ए घटे अस्ति, कपालद्वयं बि घटे अस्ति, खलु? हा, अनेन जानीमः ए घटस्य कपालाः भिन्नाः. नाम एते अवयवाः कपालाः अस्मिन् घटे अस्ति अथवा अस्मिन् पटे अस्ति. अपराः कपालाः अथवा अपराः तन्तवः अपरस्मिन् घटे वा पटे सन्ति इति जानीमः. यद्यपि कपालाः समानाः इति दृश्यन्ते, आकारः समानः इति दृश्यते, तथापि भिन्नभिन्नाः इति अवयवाः. उक्तं वा? सम्यक्. तर्हि अन्ततो गत्वा मुरलीमहोदय पठितुम् इच्छति वा? अन्तिमप्रश्नः.
अवश्यं भगिनि, पठामः.
हा, पठतु महोदय.
प्रश्नः अस्तु. एवं चेत् किमर्थम् अवयवान् आवश्यकता घटभेदे साधनार्थम्? अयं घटः अत्र अस्ति, सः घटः च तत्र. स्थले भेदात् परस्परभेदज्ञानं खलु उत्तमं, किन्तु तत्रापि प्रश्नः उदेति, कथं भेदः आगतः तयोः? अयं घटः अत्र अस्ति, सः च घटः तत्र इति प्रतीत्या प्रकटं यत् घटभेदे भेदः अस्ति इति तु सत्यं. घटभेदं ज्ञानं शक्नुमः, परन्तु कथं भेदः आगतः तयोः इत्यपि वक्तव्यं? तस्य भेदस्य प्रतिपादनार्थम् अवयवभेदपटलस्य आवश्यकता, नाम कथं भेदः आगतः, तत्र प्रयोजनकः धर्मः भवेत्. अस्य अवयवभिन्नः, तस्य च भिन्नः, तत्र स्वतो व्यावर्तकं नास्ति.
अस्तु महोदय, वक्तुं शक्नोति वा अथवा साहाय्यम् अपेक्षितम्?
साहाय्यम् अवश्यम्.
अन्यः केन न अजितमहोदय अस्ति वा अधुनापि? अजितमहोदय अस्ति? सरला भगिनी अस्ति वा?
भगिनी अहम् अस्मि, परन्तु
अस्तु. एवं कुर्मः, सभ्यसाची महोदय समापयति वा? तर्हि महोदयेन
आं भगिनि. अस्तु, तर्हि प्रश्नः अस्ति, किमर्थम् अवयवानाम् आवश्यकता घटपदे साधनार्थम् इति प्रश्नः अस्ति. इत्युक्ते तत्र अवयवाः सन्ति, तर्हि किमर्थं तस्य आवश्यकता अस्ति घटभेदसाधनार्थं? यथा वयं पूर्वे उत्तरम् इदानीमेव दृष्टवन्तः, अवयवाः अस्मिन् घटे सन्ति न तु तस्मिन्, तर्हि किमर्थम् अवयवानाम् आवश्यकता अस्ति इति प्रश्नः अस्ति. तर्हि कोऽपि वदति अयं घटः अत्र अस्ति, षट् एवम् अन्यं घटं तत्र अस्ति. तर्हि स्थलभेदात् परस्परभेदज्ञानं भवति खलु इति, तर्हि अवयवानाम् आवश्यकता किमर्थमस्ति इति प्रश्नः अस्ति. तर्हि तत्र तस्य उत्तरमस्ति, किन्तु तत्रापि प्रश्नः उदेति खलु, कथं भेदः आगतः? इत्युक्ते स्थलभेदात् परस्परभेदज्ञानमिति कोऽपि प्रश्नः पृच्छति चेत् तत्रापि प्रश्नः आगच्छति खलु, कथं भेदः आगतः द्वयोः घटयोः, यः यत्र स्थलभेदमस्ति? तर्हि अयं घटः अत्र अस्ति, स च घटः तत्र इति प्रतीत्या प्रकटं यत् घटभेदः अस्ति अस्ति इति तु सत्यम्. इत्युक्ते कोऽपि इदानीं ज्ञानं भवति अयं घटः अत्र अस्ति, स च घटः तत्र अस्ति इति प्रतीतिः अस्ति. इति प्रतीतौ तत्र घटभेदः अस्ति इति तु सत्यम्. इत्युक्ते स्थानभेदं तु अस्ति इति तु सत्यं, घटभेदं ज्ञातुं शक्नुमः, परन्तु कथं भेदः आगतः इति वक्तव्यमस्ति. घटभेदम् अस्ति इति सत्यम् अस्ति, परन्तु कथं भेदः आगतः इति तत्तु वक्तव्यम् अस्ति. तस्य भेदस्य प्रतिपादनार्थम् अवयवभेदकथनस्य आवश्यकता अस्ति. केवलं स्थलभेदनम् इति स्थानभेदनम् इति नास्ति, तत्तु अस्ति एव, परन्तु तस्य भेदस्य प्रतिपादनं भवति अवयवभेदकथनस्य. एवम् अवयवभेदस्य आवश्यकता अस्ति, नाम कथं भेदः आगतः, तत्र प्रयोजकः धर्मः भवेत्, अस्य अवयवः भिन्नः तस्य च भिन्नः इति. नाम कथं भेदः आगतः इत्युक्ते प्रयोजकः इत्युक्ते तत्र अवयवभेदः इति, तत्र धर्मः इति अस्ति भेदः. यत् घटः अत्र अस्ति तस्य अवयवः भिन्नः, यत् घटः तत्र अस्ति तस्य अवयवः भिन्नः. एवं पार्थिवद्रव्यमस्ति तर्हि तत्र तु स तु व्यवर्तकं व्यावर्तकत्वम् इति नास्ति. तर्हि स्थलभेदं तु अस्ति एव, परन्तु अवयवभेदः तस्य आवश्यकता अपि अस्ति. अवयव नाभेदम् अस्ति चेत् कथं वक्तुं शक्यते अत्र यत् घटमस्ति तद्भिन्नं, तत्र यत् अस्ति तद्भिन्नं. तर्हि अवयवभेदस्य आवश्यकता अस्ति एव.
हा, समीचीनं महोदय. यत्र स्वतो व्यावर्तकत्वम् इति नास्ति तत्र अवयवभेदभेदेन वयं भेदं स्थापयितुं शक्नुमः, अपि च तद् नितराम् आवश्यकं, केवलं स्थलभेदेन कार्यं न सिद्ध्यति इति निष्कर्षः अत्र. अस्तु, अस्मिन् करपत्रे सारांशत्वेन सर्वे धर्माः जातयः न सन्ति, किन्तु सर्वाः जातयः धर्माः इति प्रथमः विषयः. न्यायशास्त्रे प्रत्येकं पदार्थः अपरस्मात् भिन्नः इति द्वितीयः विषयः. तदनन्तरं परमाणुषु विशेषः इति विद्यते, यतोहि परमाणौ अवयवभेदेन परमाणुषु अवयवभेदेन भेदज्ञापनम् अशक्यं. परमाणुषु विशेषः इति अस्ति, विशेषे स्वतो व्यावर्तकत्वम् इति धर्मः अस्ति, न तु जातिः. अपि च विशेषत्वम् इति धर्मः एव, न तु जातिः. यतोहि विशेषस्तरे यदि जातिं स्वीकुर्मः तदा सर्वे विशेषाः अवयवभावात् समानाः इति भवेयुः, तद् न इष्टम्. अतः स्वतो व्यावर्तकत्वम् इति सामान्यम् अथवा जातिः नास्ति, केवलं धर्मः इति आगतम्. अस्तु, द्वयणुकात् आरभ्य ततः अग्रे अवयविषु भेदज्ञापनं भवति अवयवभेदात् इति अपरः विषयः. तत्र तु स्वतो व्यावर्तकत्वं नास्ति. अस्तु, अस्य करपत्रे अन्य कोऽपि प्रश्नः अस्ति वा, कस्यचित् कोऽपि भ्रमः?
केवलम् अत्र स्पष्टीकरणार्थं भगिनी, अत्र अन्तिम उत्तरम् अस्ति खलु, नाम कथं भेदः आगतः, तत्र प्रयोजकधर्मः भवेत्, तस्य अर्थः कः?
अत्र अवयवः भिन्न इति अग्रे स्पष्टीकृतं भगिनि. द्वयोः घटयोः मध्ये भेदः कथमस्ति, केवलं स्थानभेदात् न, अपि तु अस्य अवयवः भिन्नः तस्य च अवयवः भिन्नः, तादृशचिन्तनं भवेत् इति.
तस्य नाम धर्मः इति वा?
तद् किमर्थं तथा उक्तम् इति न जानामि. नाम कथं भेदः आगतः, तत्र कोऽपि प्रयोजकधर्मः भवेत्, धर्मः भवेत् इत्युक्ते विशेषस्तरे तु स्वतो व्यावर्तकत्वम् इति धर्मः, परन्तु यत्र अवयविनः सन्ति तत्र तु केवलम् अस्य अवयवः भिन्नः तस्य च अवयवः भिन्नः इति चिन्तनं भवेत्. तावदेव.
अत्र धर्मः इत्यस्य कोऽपि विशिष्ट अर्थः नास्ति, अत्र धर्मः इत्युक्ते
कीदृशं चिन्तनं स्यात् अस्माकम् इत्यस्य सूचना इत्येव मन्ये. अस्तु
अस्तु भगिनि, धन्यवादः. भगिनी, प्रयोजकः इति हू मेड् इट् इति अर्थः स्वीकरणीयं किम्?
न, प्रयोजकः इत्युक्ते यः, यस्य प्रयोजनं भवति.
अस्तु, यस्य प्रयोजनं. अस्तु,
वस्तुतः तत्र नुळ् इति प्रत्ययः, गायकः तादृशः. अत्र यः कोऽपि किमपि उपयोगं प्रयोजनं करोति तादृशः
सः प्रयोजकः.
हा, कस्यचिदपि किमपि प्रयोजनमस्ति तादृशः
प्रयोजनः
ओनर्शिप् ओनर्शिप् अपि नास्ति प्रयोजकः इत्युक्ते प्रयोजनं करोति इति चिन्तयतु
अस्तु वन् हू यूसेस्
हा हू हेज् अ यूस् तादृशधर्मः
अस्तु
अस्तु अपि च करपत्रद्वयम् अवशिष्टम् अस्माभिः करपत्रत्रयं प्रेषितम् आसीत् मया च जयन्ती भगिन्या तत्र करपत्रद्वयम् अवशिष्टमस्ति कृपया गृहपाठत्वेन पठन्तु अस्तु स्वरूप् महोदय करपत्राणि रचितवान् यतोहि अस्माकं वर्गे बहवः प्रश्नाः आसन् तेषु दिनेषु जनानां तत्र नूतनाः आसन् न्यायशास्त्रवर्गे तेषु दिनेषु तर्हि तेषां प्रश्नस्य उत्तरार्थमेव इमानि करपत्राणि रचितानि तर्हि पठन्ति चेत् इतोपि चिन्तनशुद्धिः भवति इति अवश्यं तर्हि कृपया गृहपाठरूपेण करपत्रद्वयं यदवशिष्टं तत् कृपया पठन्तु इति अस्तु तर्हि अत्र स्थगयामः अग्रिमसप्ताहात् आरभ्य पुनः विद्याधरी ग्रन्थे अग्रे सरेम इति धन्यवादः तर्हि
धन्यवादः
नमस्कारः
धन्यवादः